चैप्टर 5
श्री भगवान उवाच सन्नास कर्म जगच्च निश्रेयस कराभवो तयस्तु कर्म सन्नासेन कर्म जोग विशिष्यते सन्नासस्तु महाबाहो दुःखमाप्तुम् अजगतः जोगयुक्त मुनिर्ब्रह्म न शीर्णाधिगच्छति जोगयुक्त विशुद्धात्मा विजितात्मा जितेन्द्रिय सर्वभूतात्मा भूतात्मा कुर्वन्नपि न लिपते ब्रह्मन्याधाय कर्माणि सङ्गं त्यक्ता करोति च लिपतेन स पापेन पद्मपत्रम् इवम्भसाम् ज्ञानेन तु तदा ज्ञानम् येषां नाशितम् आत्मनः तेषाम् आदित्यवज्ञानम् प्रकाशयति तत्परम् विद्याविनयसम्पन्ने ब्राह्मणे गविहोस्तिनि शुनि चैव सपाके च पण्डिता समदर्शिनम् न प्रहिष्येत् प्रियं प्राप नोद्विजेत् प्राप चाप्रियम् स्थिरबुद्धिरसां मूढः ब्रह्मविधि ब्रह्मणि स्थितः जेहि संस्पर्शजा भोगा दुःखजनय एव ते अद्वन्तवन्त कौन्तेय नो तेषु रमते बुधा जो अन्तसुख अन्तराराम तथा अन्तर्ज्योतिरेव च सजगि ब्रह्म निर्वाणं ब्रह्म भूताधिगच्छति भोक्तारं यज्ञ तपसां सर्वलोकमहेश्वरं सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति